इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः डॉक्टर् गणेश हेगडे। अथ वार्ताः। राष्ट्रपतिः द्रौपदी मुर्मुः विकसित भारत रोजगार एंड आजीविका मिशन जी रामजी विधेयकः 20-25 इत्यस्य कृते अनुमोदनं दत्तवती। इतः पूर्वं सद्यः समाप्तस्य शीतकालीन सत्रस्य अवसरे एषः विधेयकः पारितः आसीत्। अस्मिन् अधिनियमे 2000 47 पर्यन्तं विकसित भारतम् इत्यस्य राष्ट्रिय दृष्टिकोणेन सह संगतां ग्रामीण विकासरूपरेखां स्थापयितुं प्रयतते। एतदनुसारं प्रत्येकं ग्रामीणगृहस्य वयस्क सदस्याः स्वेच्छया अकुशल कार्याणि कर्तुम् इच्छन्ति तेभ्यः प्रत्येकं वित्तीयवर्षे 25-100 दिवसानां वेतन उद्योगस्य वैधानिक ग्यारंटी इति प्रदत्ता भविष्यति। प्रधानमन्त्री श्रीनरेन्द्रमोदी उक्तवान् यत् सर्वकारः कृषकाणां हितस्य कृते सर्वोच्च प्राथमिकता रूपेण प्रतिक्षणं कार्यं कुर्वन् अस्ति। प्रधानमन्त्री ह्यः असमराज्यस्य डिब्रुगढस्य नामरूप इत्यत्र 1,610,000 कोटिरूप्यकाणाम् अमोनिया यूरिया उर्वरक परियोजनायाः शिलान्यासस्य अनन्तरं सभां सम्बोधितन् आसीत्। श्रीमोदी अवदत् यत् विकसित भारतस्य निर्माणे राष्ट्रस्य कृषकाणाम् अन्नदातानां च महत्वपूर्णा भूमिका वर्तते। सः अवदत् यत् कृषक अनुकूल योजनाः सर्वेषां कृते विस्तारिताः सन्ति।
भारत के निर्माण में देश के किसानों की, यहाँ के अन्नदाताओं की बहुत बड़ी भूमिका है। इसलिए हमारी सरकार किसानों के हितों को सर्वोपरि रखते हुए दिन रात काम कर रही है। यहाँ आप सभी को किसान हितेशी योजनाओं का लाभ दिया जा रहा है। कृषि कल्याण की योजनाओं के बीच ये भी जरूरी है कि हमारे किसानों को खाद की निरंतर सप्लाई मिलती रहे। आने वाले समय में ये यूरिया कारखाना ये सुनिश्चित करेगा।
प्रधानमन्त्रिणा प्रोक्तं यत् इयम् उर्वरक परियोजना न केवलम् असमस्य अपि तु समीपस्थ राज्यानामपि आवश्यकतां पूरयति। उर्वरक आयातस्य उपरि निर्भरतां न्यूनीकरिष्यति एवञ्च अनया परियोजनया पर्याप्त उद्योगानाम् अवसराः अपि सृज्यन्ते। प्रधानमन्त्री श्रीनरेन्द्रमोदी स्थानीय पंचायत निर्वाचनेषु विजयाय सुशासन राजनीतेः समर्थनाय च अरुणाचल प्रदेशस्य जनानां कृते धन्यवादान् प्रकटितवान्। सामाजिक अन्तर्जालीय सन्देशे श्रीमोदी अवदत् यत् एषः विजयः राज्यस्य परिवर्तनार्थं कार्यकरणस्य संकल्पं सुदृढं करोति। प्रधानमन्त्री भाजपादल कार्यकर्तृणां प्रशंसा कृता यत् ते जनानां मध्ये निरन्तरं कार्यं कुर्वन्ति। सर्वकारेण आश्वासनं दत्तं यत् अरावली पर्वतश्रेण्याः विषये भ्रामक आतंकवार्तायाः मध्ये अरावली परिस्थितिकी विषये किमपि आसन्न संकटं नास्ति। एकस्यां वार्ता विज्ञप्तौ पर्यावरण वन जलवायु परिवर्तन मन्त्रालयेन उक्तं यत् सतत वनीकरणं पर्यावरण संवेदनशील क्षेत्रसूचना खननस्य नगरीय क्रियाकलापस्य च सुदृढ निरीक्षणञ्च सुनिश्चितं करोति यत् अरावली पर्वतश्रेण्यः राष्ट्रस्य कृते प्राकृतिक रिक्थरूपेण पारिस्थितिकी कवचस्य च रूपेण निरन्तरं तिष्ठन्ति। भाजपा शिवसेना एनसीपी इति महायुति घटबन्धनेन नगरपञ्चायतानां 88+200 स्थानानि विजित्य नगरपरिषदानां 70+200 अध्यक्षपदानि च जित्वा स्थानीय निकायस्य निर्वाचने अभूतपूर्वं विजयः सम्प्राप्तः। राष्ट्रपतिः द्रौपदी मुर्मुः भारतस्य विकासे परमाणु ऊर्जायाः स्थायिरूपेण सदुपयोगः उन्नतिः च इत्यस्य विधेयकस्य अनुमोदनं कृतवती। अयं विधेयकः शीतकालीन सत्रे संसदेन पारितः आसीत्। राष्ट्रपतिना ह्यः शान्तिविधेयकस्य कृते सहमतिः प्रदत्ता। महिला क्रिकेट क्रीडायां T20 इति अन्ताराष्ट्रिय क्रीडा इत्यस्य पञ्चक्रीडा श्रृंखलायाः उद्घाटन क्रीडायां गतरात्रौ विशाखापत्तनम नगरे भारतेन श्रीलंका दलं 8 स्तोभकैः पराजितम् इति वार्ताः।